मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः न जाने मुद्रास्ते तदपि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम् विधेरज्ञानेन द्रविण विरहेणालसतया विधेया शिक्यत्वात्तव चरणयोर्याच्युतिरभूत् तदेतत्क्षन्तव्यम् जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति पृथिव्याम् पुत्रास्ते जननि बहवः सन्ति सरलाः परम् तेषाम् मध्ये विरलतरलोकम् तव सुतः मदीयोऽयम् त्यागः समुचितमिदम् नो तव शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति जगन्मातर्मातस्तव चरणसेवान् रचिता न वा दत्तम् देवि द्रविणमपि भूयस्तव मया तथापि त्वम् स्नेहम् मयि निरुपमम् यत्र कुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति मया पञ्चाशीतेरधिकमपनीते तु वयसि इदानीम् चेन्मातस्तव यदि कृपानापि भविता निरालम्बोलम्बोदरजननिकम् यामि शरणम् श्वपाको जल्पाको भवति मधुपाकोपमगिरा निरातङ्कोरङ्को विहरति चिरङ्कोटिकनकैः तवापन्ने कर्णे विशति मनुवर्णे फलमिदम् जनः को जनीते जननि जपनीयम् जपविधौ चिताभस्मालेपो गरलमशनम् दिक्पटधरः जटाधारी कण्ठे भुजगपतिहारी पशुपतिः कपाली भूतेशो भजति जगदीशैकपदवी भवानि त्वत्पाणिप्रगणपरिपाटीः फलमिदम् न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः अतस्त्वाम् संयाचे जननि जननम् यातु मम वै मृडानि रुद्राणि शिव शिव भवानीति जपतः नराजितासि विधिना विविधोपचारैः किम् रूक्षचिन्तनपरैर्न कृतम् वचाभिः श्यामि त्वमेव यदि किञ्चन मय्यनाथे धत्से कृपामुचितमम्ब परम् तथैव आपत्सुमग्नः स्मरणम् त्वदीयम् करोऽपि दुर्गे करुणार्णवेशि नैतच्छठत्वम् मम भावयेथाः क्षुधा कृशार्ता जननीम् स्मरन्ति जगदम्ब विचित्रमत्र किम् परिपूर्णा करुणास्ति चेन्मयि अपराध परम्परा परम् न हि माता समुपेक्षते सुतम् मत्समः पातकी नास्ति पापग्नी त्वत्समान हि एवम् ज्ञात्वा महादेवी यथा योग्यम् तथा कुरु इति श्रीमत् शङ्कराचार्य विरचितम् देव्यपराध క్షమాపణ స్తోత్రం సంపూర్ణం.